श्री पुष्पदंत उवाच। महिम न पारन्ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनाम् अपि तदवसन्नास्त्वयि गिरः अथावाच सर्वः स्वमतिपरिणाम् आवधिगृणन् ममापेश स्तोत्रे हरनिरपवादपरिकरः अतीतः पन्थानं तव च महिमा वाङ्मनसयो रतद्व्यावृत्यायं चकितमभिधत्ते श्रुतिरपि सकस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः।
मधुस्मिता वाच परममृतं निर्मितवत स्तव ब्रह्मन् किं वा गपिसुरगुरोर्विस्मयपदं मम त्वेतां वाणीं गुणकथन पुण्येन भवत पुनामित्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता तवैश्वर्यं यत्तत् जगदुदय रक्षा प्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्ना सुतनुषु अभव्यानामस्मिन् वरदरमणि यामरमणिं विहन्तुं व्याक्रोशिं विदधत इहैके जडधिय।
खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च अतर्क्यैश्वर्ये त्वये यनवसरदुःस्थोहत धिय कुतर्कोऽयं कांश्चिन् मुखरयति मोहाय जगतः अजन्मानो लोका किमवयववन्तोऽपि जगताम् अधिष्ठातारं किं भवविधिर्नादृत्य भवति अनीशो वा कुर्यात् भुवनजनने कः परिकरो यतो मन्दास्त्वाम् प्रत्यमरवर संशेरत इमे
त्रयी सांख्यं योग पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदापथ्यमिति च रुचीनां वैचित्र्याय दृजुकुटिलनापथजुषां नृणामेको गम्यस्त्वमसि पयसामर्णव इव महोक्ष खट्वाङ्गम् परशुरजिनं भस्मफणिनः कपालं चेतीय तव वरद तन्त्रोपकरणं सुरास्तां तां वृद्धिं दधति तु भवत् रूप परणिहितां नहि स्वात्मा रामं विषयमृगतृष्णा भ्रमयति
ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं परो द्रव्याध्रुवे जगति गदति व्यस्तविषये समस्तेऽप्येतस्मिन् पुरमथनतैर्विस्मित इव स्तुवं जिह्वे मित्वा न खलु ननु दृष्टा मुखरता तवैश्वर्यं यत्नात् यदुपरि विरञ्चर्हरिरिदा परिच्छेतुं यादा वनलमनलस्कन्धवपुषः ततो भक्तिश्रद्धा भरगुरुगृणद्भ्यां गिरिशयत् स्वयं तस्थेताभ्यां तव किमनुवृत्तिर्न फलति
अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहु न भृतरणकन्दूपरवशां शिरः पद्मश्रेणीरचित चरणाम्भोरुहबले स्थिराया त्वद्भक्ते त्रिपुरहरविस्फूर्जितमिदम् अमुष्य त्वत्सेवा समधिगतसारं भुजवनम् बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयत अलभ्या पाताले व्यलसचलितां गुष्ठशिरसि प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः
यद्रद्धिं सुत्राणो वरद परमोच्चैरपि सति मधश्चक्रे बाण परिजनविधेय त्रिभुवनः न तच्चित्रं तस्मिन् वरिवसितरीत्वच्चरणयो न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनति आकाण्ड ब्रह्माण्ड क्षयचकित देवासुरकृपा विधेयस्यासिद्य त्रिनयन विषमसौरतवतः सकल्माश कण्ठे तव न कुरुते न श्रियमहो विकारो पिश्लाद्यो भुवन भयभङ्ग व्यसनिना
असिद्धार्थानैव क्वचिदपि सदे वासुरनरे निवर्तन्ते नित्यं जगति जैनो यस्य विशिखः स पश्यन्नीषत्वा इतरसुरसाधारणमभू स्मर स्मर्तव्यात्मा नहि वशिशुपथ परिभव महीपादाधाता व्रजति सहसा संशयपदम् पदं विष्णोर्भ्राम्य भुजपद
स्वास्थ्यं याद्यनिभृतजटा ताडिततटा जगद्रक्षायै त्वं नटसि ननु वामे अभिभूता
वियद्व्यापी तारा गणगुणित फेनोद्गमरुचि प्रवाहो वाराम्यः पृषतलघुदृष्टः शिरसिते जगद्वीपाकारं जलधिवलयं तेन कृतम् त्यनेनैवोन्नेयं द्रुतमयिमदिव्यं तव वपुः रथक्षोणीयन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्को रथचरणपाणि शर इति दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि विधेयः क्रीडन्त्यो न खलु परतन्त्राः प्रबुधियः
हरिस्ते साहस्रं कमलबलिमाधाय पदयो यदेको नैतस्मिन् निजमुदहरं नेत्रकमलं ततो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगतां क्रतौ सुप्ते जाग्रत्वमसि फलयोगे क्रतुमतां वकर्म प्राध्वस्तं फलति पुरुषाराधनमृते अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवम् श्रुतौ श्रद्धां बद्ध्वा दृढपरिकर कर्म सुजन
प्रिया दक्षो दक्ष क्रतुपतिर्देशस्तनुभृता ऋषीणामात्विज्यम् शरणदसदस्या सुरगणा क्रतु भ्रंशस्वत्तः क्रतुफलविधान्नव्यसनिनो ध्रुवं कर्तु श्रद्धा विधुरमभिचाराय हिमखा प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरम् गतं रोहित भूतां रिरमयिषु मृष्यस्य वपुषा धनुष्पाणेर्यार्थं इवमपि सपत्राकृतममुं प्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभस
लावण्याशंसा धृतधनुषमन्हाय तृणवत् पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि यदि स्त्रैणं देवी यमनिरतदेहार्धघटना दवैति त्वामत्था बत वरद मुग्धा युवतयः श्मशाने श्वाक्रीडा स्मरहर पिशाचा सहचरा श्री
पूजिता भस्मालेप स्रगपि नृक रोटि परिकरः
अमङ्गल्यं शीलं तव भवतु नामैवमखिलम् तथापि स्मर्तॄणां वरद परमं मङ्गलमसि
मनःप्रत्यक्चित्ते सविधमभिधायात्तमरुतः प्रहृष्यत्रोमाणः प्रमदसलिलोत्सङ्गितदृशः यदा लोक्याह्लादं हृद इव निमज्जामृतमये दधत्यन्तस्तत्त्वं किमपि अमिनस्तत् किल भवा त्वमर्कस्त्वं सोम त्वमसि पवनस्त्वं हुतवः त्वमापस्त्वं व्योम त्वमुदरणिरात्मा त्वमिति च परिच्छिन्नामेवं त्वयि परिणता बिभ्रतिगिरं न विद्मस्तत्तत्त्वम् वयमिह तु यत्त्वन्न भवसि
दैतिस्रो वृत्ते त्रिभुवनमथो त्रीनपि सुरा नकाराद्यैवर्णै स्त्रिभिरभिदतीर्णविकृति तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणदगृणात्योमिति पदं भवशर्वो रुद्रः पशुपतिरथोग्रसः महान् तथा भीमेशाना द्वितीयदभिधानाष्टकमिदम् अमुष्मिन् प्रत्येकं प्रविचरति देवश्रुतिरपि क्रियायास्मै धाम्ने प्रणिहित नमस्योऽस्मि भवते
नमो नेतिष्ठाय प्रियदव दविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति शर्वाय च नमः जसे विश्वोत्पत्तौ भव नमो नमः प्रबलतमसे तत्संहारे हर नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृडा नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिव नमो
कृश परिणती चेत क्लेशवशं क्वचेदं क्वच तव गुणसिमो लंघिनी शश्वद्रुद्धि इति चकित ममंदी कृत्यमां भक्तिराधाद वरद चरणयोस्ते वाक्य पुष्पोपहारम्
असित गिरि समं स्यात् कज्जलं सिंधुपात्रे
सुरतरुवर्षाखा लेखनी पत्रं पूर्वी लिखति यदि गृहीत्वा शारदा सर्वकालम् तदपि तव गुणानामीश पारं नयाति
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले ग्रथित गुण महिनो निर्गुणस्येश्वरस्य सकल गुण वरिष्ठ पुष्पदन्ताभिधानो रुचिरमलधुवृत्तै स्तोत्रमेतच्चकार अहर हर नवेद्यम् जटै स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तपुमान्यः स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतरधनायुः पुत्रवान्
महेशाना परो देवो महिम्नो न परास्तुति अघोराना परो मंत्रो नास्ति तत्त्वं गुरो परम् दीक्षादानं तपस्तीर्थं ज्ञानं यागादिका क्रिया महिम्नस्तव पाठस्य कला नार्हन्ति षोडशी कुसुमदशन नामा सर्वगंधर्वराज शशिधर वरमौले देवदेवस्य दास सखलु निज महिम्नो भ्रष्ट एवास्य रोषा स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः
आसमाप्तमिदं स्तोत्रम् पुण्यं गंधर्वभाषितं అనూపమ్యం మనోహారి శివమీశ్వర్వర్ణనం
సురవర ముని పూజ్యం స్వర్గ మోక్షే కహే తుమ్ పఠతి యది మనుష్య ప్రాంజలిర్నాన్యచేత వ్రజతి శివ సమీపం కిన్నరైః స్తూయమానః స్తవనమిదం అమోఘం పుష్పదంత ప్రణీతం
శ్రీ పుష్పదంత ముఖ పంకజ నిర్గతేన స్తోత్రేణ కిల్బిషహరేణ హర ప్రియే సుప్రణీతో భవతి భూతపతిర్మహేశః ఇత్యేషా వాంగ్మయీ పూజా శ్రీమద్శంకర అర్పితేన మే దేవ ప్రియతాం చ సదా శివ
తవ తత్వం న జానామి కీదృశోసి మహేశ్వర యాదృశోసి మహాదేవ తాదృశాయ నమో నమః ఏకకాలం ద్వికాలం వా త్రికాలం శివలోకే మహీయతే శివలోకే